एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। संघीय संसदः शीतकालिकाधिवेशनम् अद्य दिवा एकवादने नयाँ वानेश्वरवर्तिनी अन्तर्राष्ट्रिय सम्मेलन केन्द्रे प्रारभते। अधिवेशनमेतत् विधेयकाधिवेशनत्वेन च गृह्यते। संघीय संसद सचिवालयेन सदनद्वयस्यैव सम्भावित कार्यसूची सार्वजनिकृता वर्तते। सचिवालयस्य प्रवक्तुः एकराम गिरी इत्यस्य अनुसारेण अद्य उपवेश्यमाने प्रतिनिधिसभायाः उपवेशे सभामुखेन राष्ट्रपतितः प्राप्तस्य अधिवेशनाह्वान सम्बद्धस्य प्रधानमन्त्रिणः कार्यभार सम्बद्धस्य प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयात् प्राप्तस्य कार्यभार वर्धन सम्बद्धस्य च पत्रस्य विवरणस्रावस्य कार्यसूची निर्धारिता वर्तते। एवमेव सभामुखेन गतविक्रमवर्षीयायाः प्रतिनिधिसभा नियमावल्याः दशमनियमस्य अनुसारेण उपवेशस्य अध्यक्षतां विधातुं सदस्यानां मनोनयनं करिष्यते। तथैव उपवेशेन दलानाम् अनुसारेण सदस्यैः स्वीय मन्तव्यम् उपस्थाप्यते। एवमेव राष्ट्रसभायाः उपवेशे गतविक्रमवर्षीयस्य मीडिया काउन्सिल विधेयकस्य एतद् विक्रमवर्षीयस्य नवीकरणयोर्जो दक्षता सम्बद्धस्य विधेयकस्य च सन्दर्भे समितेः प्रतिवेदनस्य प्रस्तुतेः कार्यसूची वर्तते। सदनद्वयैव विभिन्न विधेयकानि विचाराधीनानि सन्ति। अधुना अतिरिक्तानि विधेयकानि पञ्जीक्रियमाणानि च वर्तन्ते। संसदि संघीयता क्रियान्वयनेन सह सम्बद्धानि संघीय सर्वकारीय सेवा विद्यालयीय शिक्षा प्रहरी समायोजन प्रभृतीनि महत्वपूर्णानि विधेयकानि विचाराधीनानि वर्तन्ते। एतेषु विधेयकेषु सम्बद्ध समितिषु विमर्शनं सञ्चलदस्तीति संसद सचिवालयेन ज्ञापितं वर्तते। विपक्षिदलानाम् उपवेशेन सर्वकारेण आनीतान् अध्यादेशान् न स्वीकर्तुं निर्णीतमस्ति। नेकपा माओवादी केन्द्रस्य संसदीय दलस्य कार्यालय ह्य उपविष्टेन उपवेशेन सर्वकारेण आनीताः अध्यादेशाः अत्र अन्तर्निहितानि विषयवस्तूनि च प्रक्रियागतरूपेण न आनीतानि सन्तीत्यतः अध्यादेशान् न स्वीकर्तुं निर्णीतमस्तीति च माओवादी केन्द्रस्य प्रमुख सचेतक पदीयो हितराज पाण्डे असूचयत्। उपवेशे नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः, राष्ट्रिय स्वतन्त्र दलस्य कार्यवाहक सभापतिः डीपी अर्यालः, नेकपा एकीकृत समाजवादी दलस्य अध्यक्षः माधव कुमार नेपालः, राप्रपा दलस्य नेता ध्रुव बहादुर प्रधान, नेपाल समाजवादी दलस्य अध्यक्षः महेन्द्र यादवः, जनमोर्चा दलस्य अध्यक्षः चित्रबहादुर केसी च सहभागिनः आसन्। नेकपा माओवादी केन्द्रस्य ह्य उपविष्टेन संसदीय दलस्य उपवेशेन संघीय संसदि प्रमुख प्रतिपक्षस्य भूमिकां प्रभावकारिणीं विधातुं सर्वकारेण आनीतान् अध्यादेशान् न स्वीकर्तुं च निर्णीतमस्ति। सीमाप्रासादे ह्य उपविष्टेन माओवादी केन्द्रस्य संसदीय दलस्योपवेशेन श्वः अद्यतः प्रारभमाण उपवेशेन अद्यतः प्रारभमाणं संघीय संसदः सभाद्वयमेव अतिरिक्तं व्यवस्थितां प्रभावकारिणीं च सम्पादयितुं प्रमुख प्रतिपक्षस्य भूमिकां सशक्तं विधातुं निर्णीतमिति दलस्य प्रमुख सचेतक पदीयो हितराज पाण्डे अज्ञापयत्। उपवेशे सदने जनतायाः अपेक्षायाः जनजीविकायाश्च विषयान् प्राथमिकतया उत्थापयितुं दलस्य सदस्यः स्वीय भूमिकाम् अतिरिक्तं प्रभावकारिणीं च विधातुं च निर्दिष्टः सन्तीति प्रमुख सचेतक पदीयः पाण्डे अज्ञापयत्। प्रधानमन्त्री केपी शर्मा ओली विपुलमात्रायाम् उत्पादनं कृत्वा प्रतिवेशिभ्यां चीन भारतभ्यां सह अन्तर्राष्ट्रियापणे निर्यातस्य वर्धनस्य अवस्थां स्रष्टुम् उद्योगी व्यवसायिनः अनुरुणद्धि। नेपाल चेम्बर अफ कमर्स संस्थया भ्रिकुटी मण्डपे आयोजितम् अष्टम्यः अन्तर्राष्ट्रिय प्रदर्शन्याः उद्घाटन समारोहं सम्बोधयन् पूर्वेद्युः प्रधानमन्त्री ओली निर्यातस्य वर्धनाय विपुलमात्रायाम् उत्पादनस्य वर्धनाय च कस्य वस्तुनः विक्रयणं कुत्र भविष्यति इति ज्ञात्वा तदनुसारस्य व्यापारः वर्धनीय इति प्रावोचत्। पूर्वाधार विकासस्य क्रमः सञ्चलन् अस्तीत्यतः नेपालः अतिरिक्तं तीव्रगत्या अग्रे वर्धिष्यतीति भाषमाणः प्रधानमन्त्री ओली राजनीतिक्यः अस्थिरतातः अर्थतन्त्रे प्रतिकूलप्रभावः सृष्टोऽस्तीति अवस्थायाम् अर्थतन्त्रम् गतिशीला अवस्थायाम् प्रत्यावर्तयितुम् नूतनसर्वकारः निर्मितोऽस्तीत्यतः षड्विंशत्यधिकद्विसहस्रतम विक्रमवर्षम् यावत् नेपालस्य मध्यमस्तरस्य आययुते देशे स्तरोन्नतिम् विधातुम् पूर्वकार्यम् विधीयमानमस्तीति असूचयत्। कार्यक्रमे संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ सर्वकारेण कृत्रिम बौद्धिकतायाः विषये नीतिगत स्पष्टताम् कृत्वा विधेय प्रबन्धनम् करिष्यते। सूचना प्रविधि क्षेत्रस्य व्यावसायिक विकासाय सर्वकारेण आनीतः अध्यादेशः उपयोगिनो भविष्यन्तीति च अगदत्। नेपाल चेम्बर अफ कमर्स संस्थायाः अध्यक्षः कृष कुमार अग्रवालः सर्वकारेण सम्प्रत्येव आनीत हि अध्यादेशे उद्योग व्यवसायस्य क्षेत्रे अनुकूल विश्वास प्रवाहितोऽस्ति इति अवोचत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ सार्वजनिक सेवा प्रसारणस्य संघटनम् नेपालकस्य संचार क्षेत्रे एका विशिष्टा क्रान्तिः अस्तीत्यतः एतस्याः विरुद्धे पुनः प्रतिक्रान्तिः न भवतु इति धिया अस्याः क्रान्तेः व्यवस्थापनम् कर्तव्यम् भवति इति उक्तवान् अस्ति। नेपाल टेलिभिजन इति दूरदर्शनस्य चत्वारिंशत्तम वार्षिकोत्सवस्य अवसरे ह्य आयोजिते विशेष समारोहे मन्त्रिणा गुरुङ इत्यनेन सार्वजनिक सेवा प्रसारणं विश्वव्यापी जनोत्तरदायी च विधातुम् आवश्यकं सर्वविधमपि सहयोगं कर्तुं सर्वकारः प्रतिबद्धोऽस्ति इति ज्ञापितं वर्तते। समारोहे राष्ट्रिय योजना आयोगस्य सदस्येन डॉ प्रकाश कुमार श्रेष्ठेन संचार सूचना प्रविधि मन्त्रालयस्य सचिवेन राधिका अर्यालेन सार्वजनिक सेवा प्रसारणस्य कार्यकार्याध्यक्षेण डॉ महेन्द्र विष्टेन सार्वजनिक सेवा प्रसारणस्य निमित्त प्रमुख प्रशासकीयाधिकृतेन विष्णुराम नेउपानेभिधेन च मन्तव्यानि प्रकटितानि आसन्। एतदवसरे नेपाल टेलिभिजन संस्थाने विंशति वर्षाणि यावत् त्रिंशत् वर्षाणि यावत् च निरन्तरं कार्यं कृतवन्तः विभिन्न विधानां कर्मकराः पत्रकाराः दृश्य सम्पादकाः समाचारवाचकाः प्राविधिकाश्च रजतमयेन स्वर्णमयेन च दीर्घ सेवा पदकेन विभूषिताः आसन्। प्रतिनिधिसभायाः सभामुखः देवराज घिमिरे कथयति भौतिक संरचनानां विकासः एव विकासोऽस्तीति विचारस्य अन्तं विधाय प्राविधिक शिक्षायां निवेशनं व्यवर्धयितुं स्थानीय सर्वकारम् अनुरुणद्धि। वीरतामोड नगरपालिकायाः द्वितीय नगरसभायाः षष्ठम् अधिवेशनम् उद्घाटयन् पूर्वेद्युः सभामुखः घिमिरे सैद्धान्तिक शिक्षया सहैव व्यावहारिक्याः प्राविधिक्याश्च शिक्षायाः देशस्य आवश्यकता अस्ति इति प्रावोचत्। देशे संघीय प्रणाल्याः स्थापनायाः पश्चात् स्तरत्रयस्य सर्वकाराणां व्यवस्था सम्भूता अस्ति इति चर्चयन् सभामुखः घिमिरे गुरुयोजनां निर्माय एव विकास निर्माणस्य कार्यम् अग्रे वर्धयितुं परामृष्टवान्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः भाषते यूनाम् ऊर्जसः समाजस्य अग्रगामि रूपान्तरणाय उचितरीत्या प्रयोगो विधेयः। अखिल क्रान्तिकारी संघटनस्य नवनिर्वाचित पदाधिकारिभिः सह ह्य खुमलटारवर्तिनी स्वस्य निवासे मेलनस्य क्रमे अध्यक्षो दाहालः युवसु शैक्षिकान्दोलनस्य अग्रतायां राजनैतिकान्दोलनस्य सेवायाञ्च उचितरीत्या प्रयुक्तेषु सत्सु देशस्य अवस्था परिवर्तिष्यते इति अवोचत्। खोटाङ्ग जनपदस्य दिक्तेलस्थानात् काष्ठमण्डपं प्रति प्रस्थीयमानस्य जीवयानस्य दुर्घटनायां त्रयोजनाः मृताः सन्ति। दुर्घटनायां केपिलासगढ़ी ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य वास्पानिस्थानस्य 58 वर्षीया माया गुरुङ तस्य पुत्र 28 वर्षीयः पूजन गुरुङ दिक्तेल रूपाकोट मझुवागढ़ी नगरपालिकायाः द्वादशवडा क्षेत्रस्य जालपास्थानस्य 45 वर्षीया तारा गुरुङ च मृताः सन्तीति प्रहरिणा ज्ञापितम् वर्तते। मध्यपहाड़ी राजमार्गान्तर्गतस्य ओखलढुंगा जनपदस्य माने भंज्याङ ग्रामपालिकायाः सप्तम ओडा क्षेत्रस्य भडारे खोलिकायां जीपयानं दुर्घटितमासीत्। कञ्चनपुर जनपदे ट्रैक्टर यानस्य दुर्घटनायां 17 जनाः आहताः वर्तन्ते। कञ्चनपुरस्य कृष्णपुर नगरपालिकायाः चतुर्थ ओडा क्षेत्रे ट्रैक्टर यानं दुर्घटितम् आसीत्। आहतेषु द्वादश जनानाम् उपचारः निमेष चिकित्सालये, पञ्च जनानाम् उपचारः नवजीवन चिकित्सालये जायमानो स्थिति प्रहरिणा ज्ञापितम् वर्तते इति समाचारः।